एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रिय स्वतन्त्र दलस्य सभापतिना रवि लामी छानेभिदेन सामयिक राजनीतिक विषयेष् विमर्शनाय अद्य सर्वदलीयोपवेशः आहूतो वर्तते। सभापतिना रवि लामी छानेभिदेन अद्य पूर्वाह्नस्य नववादनाय सिंहप्रासादवर्तिनः संघीय संसद सचिवालयस्य अन्तर्गताया सार्वजनिक लेखा समितेः भवने उपवेशः आहूतो स्थिति रासोपा दलस्य महामन्त्री कविन्द्र बुर्लाकोटी असूचयत्। सर्वदलीयोपवेशस्य सूचनया सहितस्य आमन्त्रणेन सहितः अनुरोधः प्रतिनिधि सभायां राष्ट्रिय सभायां च प्रतिनिधित्वं कुर्वद्भ्यः सर्वेभ्यो राजनीतिक दलेभ्यः प्रेषितोऽस्तीति महामन्त्री बुर्लाकोटी अज्ञापयत्। उपवेशे प्रतिनिधि सभायां राष्ट्रिय सभायां च प्रतिनिधित्वं कुर्वतां राजनीतिक दलानाम् अध्यक्षैः सभापतिभिश्च वा सहितं प्रतिदलं जनद्वयम् आहूतम् वर्तते। परराष्ट्रमन्त्री शिशिर खनालः भारतदेशस्य त्रिदिवसात्मकं भ्रमणं प्रपूर्य ह्य स्वदेशं प्रत्यागतोऽस्ति। भारतस्य विदेशमन्त्रिणः डॉ एस जयशंकरस्य मैत्रीपूर्णायां निमन्त्रणायां मन्त्री खनालः शुक्रवासरे नवदेहलीं प्रस्थितः आसीत्। भ्रमणस्य क्रमे मन्त्रिणा खनालेन शनिवासरे स्वस्य समकक्षिणा सह प्रतिनिधिमण्डलस्तरीया द्विपक्षीया मेलवार्ता विहितासीत्। वार्तायां विकास सहकार्यस्य सम्पर्क सञ्जाल विस्तारस्य व्यापारस्य ऊर्जसः जनस्तरस्य सम्बन्धस्य च विविधेषु विषयेषु विमृष्टम् आसीत्। नवदेहल्यां परराष्ट्रमन्त्रिणा खनालेन भारतस्य राष्ट्रिय सुरक्षा परामर्शदात्रा अजित डोभाल इत्यनेन भारतीय जनता दलस्य विदेश विभाग प्रमुखेण डॉ विजय चौथाईवाले इत्यनेन च सहापि पृथक पृथक मेलवार्ता विहितासीत्। स्वदेश प्रत्यागमनात् पूर्वं नयाँ दिल्लीवर्तिनी नेपाली दूतावासे आयोजिते पत्रकार सम्मेलने परराष्ट्रमन्त्री शिशिर खनालः नेपाल भारतयोर्मध्ये विद्यमानायाः सीमा सम्बद्ध समस्यायाः वार्तायाः कौटनीतिक माध्यमेन च समाधातुं नेपालः तत्परोऽस्तीति उदैरयत्। तदवसरे परराष्ट्रमन्त्री खनालः लिपुलेख लिम्पियाधुरा कालापानी क्षेत्राणि नेपालस्य भूमिरस्थिति द्विरावर्तयन् एतत् सम्बन्धे नेपालेन भारत चीन देशाभ्याम् स्वस्य आधिकारिकी धारणा स्पष्टीकृतास्तीति असूचयत्। सुदूर पश्चिम प्रदेशस्य टीकापुर स्थाने आयोजितम् अन्तर्व्यवस्थापिका मञ्चस्य एकादशम् सम्मेलनम् नवसूत्रात्मकम् सन्देशपत्रम् प्रकाश्य सम्पन्नमस्ति। सम्मेलनेन सर्वासु प्रदेशसभासु वैद्युत संसदीय प्रणाल्याः स्थापनायाः अन्तर्व्यवस्थापिका मञ्चस्य सचिवालयस्य कार्याणाम् संघीय संसद सचिवालयस्य अन्तर्गतायाः प्रदेशसभा सम्पर्क समन्वय शाखायाः माध्यमेन सञ्चालनस्य कार्यसम्पादन सामर्थ्यस्य अभिवृद्धये व्यवस्थापकीय प्रतिष्ठापन स्थापनायै प्रयत्नस्य संसदीयाय व्ययक विवरण कार्यालयस्य स्थापना सम्बद्ध प्रक्रियायाः अग्रेवर्धनस्य च महत्वपूर्णाः सन्देशाः प्रकाशिताः वर्तन्ते। सम्मेलनस्य समापन कार्यक्रमे सभामुख डोलप्रसाद अरियालः जनप्रतिनिधिभिः जनतायाः विश्वासस्य अपेक्षायाश्च अनुसारेण दायित्ववाहितया निष्ठया उत्तरवाहितया च कार्याणि सम्पादनीयानीति बलं दत्तवान्। तदवसरे सभामुख अरियालः संघीयतायाः सुदृढीकरणाय प्रदेशसभासु समन्वयस्य अनुभवानाम् आदान प्रदानयोः सहकार्यस्य च आवश्यकतास्तीति प्रत्यपादयत्। बांके जनपदे हुलाकी त्याख्यस्य सहायक मूलमार्गस्य विस्तारस्य कार्यम् प्रारब्धम् वर्तते। बांके जनपदस्य राप्ती सोनारी ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य नारायणपुरस्थानात् दाङ जनपदस्य सीमक्षेत्रम् कुसुमपारी भवानीपुरस्थानम् यावत् मार्गस्य विस्तारस्य कार्यम् प्रारब्धमस्तीति नेपालगंजवर्तिना सहायक मूलमार्ग निर्देशनालय योजना कार्यालयेन ज्ञापितम् वर्तते। कार्यालय प्रमुख लीला बहादुर भण्डारी राजमार्गस्य दाङ बाँके बर्दिया खण्डस्य समग्रत पञ्चसप्तति किलोमीटर मिते मार्गे आसन्न षट्त्रिंशत् किलोमीटर मित मार्गस्य निर्माणं कर्तव्यमस्ति। तत्र आसन्न विंशतिः वज्रसेतवः निर्मातव्यः सन्तीति असूचयत्। अस्य कार्यस्य कृते दाङ जनपदे द्वाविंशति किलोमीटर मितस्य मार्गस्य निर्माणाय सप्तदशभिः सेतुभिः सह एकोनत्रिंशत् अब्जानां रूप्यकाणां स्रोतः सुनिश्चितम् अस्तीति असौ अज्ञापयत्। स्वास्थ्य खाद्य स्वच्छता मन्त्री निशा मेहता समग्र स्वास्थ्य क्षेत्रस्य सुधाराय सर्वकारेण विशेषं बलं प्रदीयमानम् अस्ति इति सूचयति। यः काष्ठमण्डपे आयोजिते पत्रकार मेलन कार्यक्रमे स्वास्थ्य मन्त्री मेहता समग्र स्वास्थ्य क्षेत्रे दृष्टानां समस्यानां समाधानस्य प्रयासं आगामी योजनानां कार्याणि च प्रभावकारिणी विधातुं वर्तमान सर्वकारः केन्द्रितो वर्तते इति असूचयत्। अत्रान्तरे सर्वकारीय कर्मचारिणां चिकित्सालयस्य स्वास्थ्य सम्बद्ध सेवा सौविध्यानि अद्यतः चितवन जनपदस्य भरतपुर चिकित्सालये पर्सा जनपदस्य नारायणी चिकित्सालये च प्राप्यन्ते। भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालयेन ह्य सूचनां प्रकाश्य काष्ठमण्डपवर्तिना सर्वकारीय कर्मचारी चिकित्सालयेन सर्वकारीय कर्मचारीभ्य प्रदीयमानं उपचार सौविध्यं प्राथमिक चरणे भरतपुर नारायणी चिकित्सालययोरपि प्रदापयितुं प्रारब्धमस्तीति सूचितं वर्तते। स्वास्थ्य सेवा सौविध्यं प्राप्तुं सर्वकारीय कर्मचारिभिः सेवानिवृत्तैः कर्मचारिभिः एतेषां परिवारजनैश्च सर्वकारीय कर्मचारी चिकित्सालयेन प्रदत्तम् आधिकारिकं पत्रं सहैव नीत्वा चिकित्सालयः प्राप्तव्यो भवतीति सूचनायाम् उल्लिखितं वर्तते। इति समाचाराः।